यत्ते समानमपरं कदाचिदुपयासि तुभ्यं नमः क्षितितलामलभ शुचि ने